एस रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। अस्यैव फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानाम् निर्वाचनस्य कृते आराष्टम् पञ्चषष्ट्युत्तरैकशते निर्वाचनक्षेत्रेषु निर्वाचन सामग्र्यः प्रापिताः सन्ति। प्रत्यक्ष प्रणाल्या अथ च समानुपातिक प्रणाल्या समग्रतः चतस्रः कोटय एकादश लक्ष्याणि त्रिपञ्चाशत् सहस्राणि च मतपत्राणि सप्तसप्ततेर जनपदानां पञ्चषष्ट्युत्तरैकशते निर्वाचनक्षेत्रेषु प्रापितानि सन्तीति निर्वाचनायोगस्य सहायक प्रवक्ता कुलबहादुरजीषी असूचयत्। अवैधमतं न्यूनीकर्तुं मतदाता शिक्षा सम्बद्धः विशेष कार्यक्रमः अस्यैव फाल्गुन मासस्य तृतीय दिवसात् सञ्चाल्यमानोऽस्ति। मतदाता शिक्षा फाल्गुन मासस्य सप्तदशं दिवसं यावद् त्रिपञ्चाशदुत्तर सप्तशतस्य स्थानीय स्तराणां षट् सहस्रेषु सप्तशते त्रिचत्वारिंशति च वडाक्षेत्रेषु नैरन्तर्येण सञ्चाल्यते इति आयोगेन ज्ञापितं वर्तते। निर्वाचनायोगेन अस्यैव फाल्गुन मासस्य विंश दिवसस्य रात्रौ द्वादशवादनात् एकविंश दिवसे मतदानस्य असमाप्तिं यावत् सार्वजनिकानां नैजानां च यातायात साधनानां सञ्चालने निषेधः कृतोऽस्ति। अस्यैव फाल्गुन मासस्य एकविंश दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते सुरक्षा व्यवस्थां सुदृढां कर्तुम् अष्टासप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयायाः निर्वाचन सुरक्षा व्यवस्थापन निर्देशिकायाः तृतीय व्यवस्थायाः अनुसारेण संघटितायाः उच्चस्तरीय निर्वाचन सुरक्षा समितेः य उपविष्टेन उपवेशेन मतदानस्य दिने अत्यावश्यकानि यातायात साधनानि विहाय अन्येषाम् सार्वजनिकानाम् नैजानाम् च यातायात साधनानाम् सञ्चालने निषेधम् कर्तुम् निर्णीतमस्तीति आयोगस्य सहसचिव प्रवक्ता च नारायण प्रसाद भट्टराई असूचयत्। एवमेव समित्या मतदानस्य दिनात् एकसप्ताह पूर्वतः निर्वाचनस्य अन्तिम परिणामस्य घोषणायाः असमाप्तिं यावत् मादक पदार्थानां विक्रय वितरणे सेवने च आराष्टं निषेधं कर्तुं गृहमन्त्रालयाय पत्रं प्रेषयितुमपि निर्णीतं वर्तते। निर्वाचनायोगस्य केन्द्रियाचार संहितानुगमन समितौ अधुनावधि सप्ताशीतिर्याचिका निवेदनानि प्राप्तानि सन्ति। तत्र सम्बद्धेभ्य राजनीतिक दलेभ्य प्रत्याशिभ्यश्च आयोगेन स्पष्टीकरणं पृष्टमस्ति। तेषु सप्तपञ्चाशतः स्पष्टीकरणानां प्रत्युत्तरं प्राप्तमस्ति इति निर्वाचनायोगेन ज्ञापितं वर्तते। आयोगेन निर्वाचनाचार संहितायाः उल्लंघनस्य आरोपे राजनीतिक दलेभ्य प्रत्याशिभ्य सर्वकारीय संस्थाभ्य सर्वकारीयेतर संस्थाभ्य संचारमाध्यमेभ्य पत्रकारेभ्यश्च स्पष्टीकरणं पृष्टमस्ति। साम्प्रतं यावत् एकाशीति प्रत्याशिभ्य स्पष्टीकरणं षट् प्रत्याशिभ्य पुनः स्पष्टीकरणं पृष्टमस्तीति आयोगस्य विद्यधिकृत मोहन राज जोशी असूचयत्। पञ्जीभूतानि संचार माध्यमानि तत्र आबद्धान् पत्रकारांश्च प्रेस काउन्सिल इति संस्थाया माध्यमेन स्पष्टीकरण प्रवृत्तीनां कार्याणां कृते पत्रं प्रेषितमस्तीति च आयोगस्य विद्यधिकृत जोशी असूचयत्। प्रतिनिधिसभा सदस्यानां निर्वाचनस्य सन्दर्भे निर्वाचनायोगेन ह्यः नेपालस्य कृते कूटनीतिक नियोगानां प्रमुखैः प्रतिनिधिभिश्च सह विमृष्टं वर्तते। विमर्शने आयोगस्य सचिवः कृष्णबहादुर राउत आगामिनि बृहस्पतिवासरे आयोक्ष्यमाणं निर्वाचनं स्वच्छे भयरहिते शान्तिपूर्णे च वातावरणे सम्पादयितुम् आयोगेन सह आवश्यकं सहयोगं समन्वयं च कर्तुं कूटनीतिक नियोगानां प्रमुखान् प्रतिनिधिं च अन्वरुणात्। मिथ्याः भ्रमपूर्णाश्च सूचनाः निर्वाचन प्रक्रियायां एव दुष्प्रभावं प्रसारयितुं शक्नुवन्ति इत्यतः राष्ट्रियान्तर्राष्ट्रिय स्तरेषु यथार्थ सूचनां सम्प्रेषयितुम् असौ अन्वरुणात्। तदवसरे आयोगस्य सहसचिव ज्ञानहरि घिमिरे निर्वाचनस्य कृते आयोगेन विहितानां पूर्वकार्याणां विषये ज्ञापितवान्। निर्वाचनायोगेन अस्यैव फाल्गुन मासस्य एकविंश दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य समये चिकित्सालयेषु स्वास्थ्य संस्थासु च स्वास्थ्यकर्मिणः तत्परावस्थायां स्थापयितुं सर्वाः स्वास्थ्य संस्थाः निर्दिष्टाः वर्तन्ते। निर्वाचनस्य व्यवस्थापकीय कार्यायोगात् स्वीकृतायाः कार्यतालिकायाः अनुसारेण नैरन्तर्यस्य मतदानस्य कारणेन मतदानकेन्द्रेषु क्रियारतानां कर्मचारिणां सुरक्षाकर्मिणां मतदातृणां च कृते आकस्मिक स्वास्थ्य सहयोगस्य आवश्यकतायाः सम्भावनायाः कारणेन सम्बद्ध मतदानस्थले आकस्मिक स्वास्थ्य सेवायाः व्यवस्थां कर्तुं च निर्दिष्टं वर्तते इति आयोगस्य प्रवक्ता सहसचिव नारायण प्रसाद भट्टराई असूचयत। प्रवक्ता भट्टराई आयोगेन संघीय विषय सामान्य प्रशासन मन्त्रालयस्य माध्यमेन सहयोक्तुं सर्वे स्थानीय स्तराश्च अनुरोधा सन्ति इति असूचयत। प्रधान सेनापति अशोक राज सिग्देल निर्वाचन से सुरक्षावस्था सूचनाया ग्रहण से क्रमे धनगढ़ी वर्तिन्या सुदूर पश्चिम प्रेतनाया अथ च सुर्खेत वर्तिन्या उत्तर पश्चिम प्रेतनायाश्च निरीक्षण विहितवान वर्तते। निरीक्षण से पश्चात प्रधान सेनापति सिग्देल सेनाये प्राप्त दायित्व उत्कृष्ट रूपेण संपादयितुं निरदिशत। तस्मिन् क्रमे प्रधान सेनापतिना सिग्देलेन प्रदेश स्तरीय सैन्य पदाधिकारीभिः सह मेलवार्ता अन्तरक्रिया च विहिते आस्ताम्। झपट पुरस्कार व्यवस्था समित्या झपट पुरस्कारेण चतुर विशिष्ट जनान पुरस्कर्तुं निर्णीतं वर्तते। समितेः अध्यक्षस्य अरुण राणा इत्यस्य अध्यक्षतायां ह्यः उपविष्टेन उपवेशेन आख्यान विधाया माध्यमेन नेपाली साहित्यस्य श्रीवृद्धौ विशिष्ट योगदानं प्रदत्तवन्तं। सनद रेग्मिणं रक्ष रूप्यकाणां झपट पुरस्कारं प्रदातुं गीतकारं राजेन्द्र थापाविदं यज्ञ केसर पुरस्कारं प्रदातुं च निर्णीतं वर्तते। इति समाचाराः।